There's some butter.
नमः सर्वेभ्यः. अद्य विभक्तिवर्गे चतुर्विंशः पाठः, जून् मासस्य पञ्चविंशः दिनाङ्कः. रामो राजमणिः सदा विजयते, रामं रमेशं भजे. रामेणाभिहता निशाचरसमूह, रामाय तस्मै नमः. रामान्नास्ति परायणं परतरं, रामस्य दासोऽस्म्यहम्. रामे चित्तलयः सदा भवतु मे, भो राम मामुद्धर. गुरुरेव गतिः गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे. न गुरोः परमं शिशुरस्मि गुरोः, मतिरस्ति गुरौ मम पाहि गुरो. अद्य सप्तमी विभक्तिं पश्यामः. एतावता प्रथमायाः आरभ्य षड् विभक्तयः अधीताः. सप्तमी अन्तिमा च विभक्तिः अध्येतव्या अस्ति. आदौ कानिचन उदाहरणानि पश्यामः. एतानि फलानि, फलानि वृक्षे सन्ति. फलानि वृक्षे सन्ति. एषा लेखनी, लेखनी हस्ते अस्ति. लेखनी हस्ते अस्ति. एतत् कन्दुकम्, कन्दुकम् पेटिकायाम् अस्ति. एषा पेटिका पेटिकायाम् कन्दुकम् अस्ति. एषः बालः, बालः दोलायां क्रीडति. बालः दोलायां क्रीडति. एतत् जलम्, जलं कूप्याम् अस्ति. जलं कूप्याम् अस्ति. कूपी कूप्याम् अस्ति. एते मीनाः, मीनाः जाले सन्ति. एतत् जालं जाले मीनाः सन्ति. क्रियायाः विषये कुत्र इति प्रश्नस्य यदुत्तरं भवति तत् अधिकरणं भवति. यथा फलानि कुत्र सन्ति, वृक्षे सन्ति. मीनाः कुत्र सन्ति, जाले सन्ति. जलं कुत्र अस्ति, कूप्याम् अस्ति. कन्दुकं कुत्र अस्ति, पेटिकायाम् अस्ति. एवं क्रियायाः विषये कुत्र इति यदा प्रश्नं पृच्छामः तदा तस्य उत्तरं यल्लभ्यते तदेव अधिकरणम् इत्युच्यते. आधारः अधिकरणम्, आधारः द सब्स्ट्रेटम् और् सपोर्ट्, क्रियायाः आधारः. सो द लोकेशन् वेर् एन् एक्शन् इस् हेपनिङ्ग् इस् काल्ड् अधिकरण. अधिकरणवाचकात् सामान्यतः सप्तमी विभक्तिः भवति. सो यु हाव् सप्तमी विभक्ति आन् द अधिकरणात्. आदौ सप्तमी विभक्तेः रूपस्य अभ्यासं कुर्मः. अस्य सप्तमी विभक्तौ एकवचनरूपं वक्तव्यम्. ये वक्तुमिच्छन्ति कृपया हस्तम् उन्नयन्तु. राव् महोदय,
श्रूयते वा?
श्रूयते.
हस्तः, हस्ते, हस्तयोः, हस्तेषु.
एकवचनरूपेण अलम्. इदानीम् अनन्तरम् अन्यानि वचनानि पश्यामः.
पादे
पादः पादे
वृक्षः वृक्षे
नेत्रं
नेत्रे
नेत्रं नेत्रे
पुस्तकं पुस्तके मुखं मुखे.
धन्यवादाः.
थैंक यू.
हरमंदर सिंह.
तुला तुलायाम
तुलायाम
नौका नौकायाम शाला शालायाम पत्रिका पत्रिकायाम शिला शिलायाम संचिका संचिकायाम
संचिका अ फाइल
फाइल
फाइल और फोल्डर या कृष्ण मोहन
नदी नद्याम वाणी वाण्याम कर्तरी कर्तरियाम द्रोणी द्रोण्याम दर्वी दर्व्याम घटी घट्याम.
सम्यक्. धन्यवादाः. दृश्यते पुल्लिंगे नपुंसकलिंगे च समानं रूपं हस्ते पादे वृक्षे नेत्रे पुस्तके मुखे इति एकारान्तम् आकारान्तस्त्रीलिङ्गानाम् अन्ते याम इति योज्यते. तुलायाम नौकायाम शालायाम इत्यादि. ईकारान्तस्त्रीलिङ्गानाम् ईकारस्य स्थाने याम इति नद्याम वाण्याम कर्तर्याम ईकारं निष्कास्य तत्स्थाने याम इति योज्यते. तेन सप्तमी विभक्तेः रूपाणि सिद्ध्यन्ति. इदानीं कुत्र वसति इति प्रश्नः. वाक्यं रचनीयम् यथा अहं चेन्नई नगरे वसामि इत्येवं कः कुत्र वसति इत्येवं रूपेण वाक्यं रचनीयम्. मलकोंडय्य महोदय.
सुप्रभातम्.
सुप्रभातम्.
विष्णुः वैकुंठे वसति.
विष्णुः वैकुंठे वसति.
शिवः कैलासे वसति. श्रीरामः अयोध्यायां वसति.
सम्यक्. श्रीरामः अयोध्यायां वसति. गीता.
श्रीकृष्णः द्वारकायां वसति. इन्द्रः अमरावत्यां वसति. कुबेरः अलकापुर्यां वसति.
अलकापुर्यां वसति. अलकापुरि अलका इस् द सिटी आफ् कुबेर. श्रीप्रिया.
ब्रह्मा सत्यलोके वसति. वरुणः भोगवत्यां वसति.
भोगवत्यां वसति.
दुर्योधनः हस्तिनापुरे वसति.
सम्यक्. उमाशंकरी.
अर्जुनः इन्द्रप्रस्थे वसति. रावणः लंकायां वसति. विश्वनाथः काश्यां वसति.
सम्यक्. बालचंद्रन.
जगन्नाथः पुर्यां वसति.
पुर्यां वसति.
कंसः मथुरायां वसति यशोदा गोकुले वसति
गोकुले वसति शिवराम खलु
नमो नमः नमो नमः जनकः मिथिलायां वसति भरतः नन्दिग्रामे वसति राधा वृन्दावने वसति
सम्यक् सो वासः सो दाधिकरण इस् वेर् इति प्रश्नस्य उत्तरं सप्तमी विभक्तौ भवति Alaka iti nama. So all these are names of places. So Alaka means the the hair in at the front, but in this case it's the locks of hair. But in this case it is just the name of Kubera's city. Agrimaha Abhyasaha Kutra Santi Yatha Idanim Vrikshaha Vrikshaha Kutra Santi iti Vakyam. वाक्येन वक्तव्यम् महादेवन्
वने वृक्षाः सन्ति
हा वृक्षाः वने सन्ति
पुष्पाणि लतायां सन्ति
पुष्पाणि लतायां सन्ति जनाः विमाने सन्ति धन्यवादाः पॉल
छत्राः शालायां सन्ति मीनाः नद्यां सन्ति
मीनाः नद्यां सन्ति
शाखानि कण्डोले सन्ति
कण्डोलः इस् अ बास्केट् काइंड ऑफ थिंग शाखानि इस् वेजिटेबल्स् सो शाखानि कण्डोले सन्ति थैंक यू पॉल
गुड थैंक यू
वेङ्कटेश्वरन् पत्रिकायां सन्ति
वस्त्राणि द्रोण्यां सन्ति
द्रोण्यां सन्ति द्रोणी इस् अ बकेट्
पुस्तकानि स्यूते सन्ति
स्यूते सन्ति सम्यक् एतत्तु देशः अधिकरणम् सो वाट् वी सा सो फार् आर् आल् इन्स्टेन्सेस् आफ् अधिकरण बीङ्ग् अ प्लेस् सो कुत्र वसति अथवा सम्थिङ्ग् बीयिङ्ग् आन् आर् इन् सम्थिङ्ग् सो इट् इस् आल् एन् इन्स्टेन्स् आफ् लोकेशन् आफ् प्लेस् सो देर् इस् आल्सो द लोकेशन् आफ् टैम् कालः अपि अधिकरणं भवितुम् अर्हति यथा अहं प्रातःकाले देवं नमामि सो दिवसे अहं प्रातः देवं नमामि प्रातः इट् सेल्फ् इस् यूस्ड् इन् द सेन्स् आफ् सप्तमी दधकरण इन् द मार्निङ्ग् ते बालाः सायङ्काले क्रीडन्ति सा पञ्चवादने आगच्छति एट् 5 o'clock अग्रिममासे परीक्षाः भवन्ति So exams are next month, in the next month. So agrima maase. Evam kalavachakaha shabdaha prataha sayam athava kani dinani maasaha varsham ityadi sarvam api adhikaranam bhavati. Ekam kshanam. बालः कस्मिन् दिने किं पठति इति वक्तव्यम्. एक्स्क्यूज मी जस्ट वन मोमेंट प्लीज. क्षम्यताम्. बालः कस्मिन् दिने किं पठति इति वक्तव्यम्. श्रीधर
नमस्ते मान्ये.
वदतु.
बालः सोममासरे रामायणं पठति.
सोममासरे रामायणं पठति.
बालः मंगलवासरे महाभारतं पठति. बालः बुधवासरे भगवद्गीतां पठति.
सम्यक्. शारदा. शारदा भगिनी न श्रूयते किमपि. महादेवन.
बालः गुरुवासरे भागवतं पठति. सः शुक्रवासरे सौन्दर्यलहरीं पठति.
सौन्दर्यलहरीं
पठति. बालः शनिवासरे शिवस्तोत्रं पठति. भानुवासरे सः दुर्गासप्तशतीं पठति.
सम्यक्. सो एतानि सप्ताहस्य दिनानि ज्ञायन्ते सर्वैः इति चिन्तयामि. बट् सोमवासर स्टार्टिङ्ग् फ्रम् मण्डे ट्यूस्डे वेन्स्डे थर्स्डे फ्रैडे साटर्डे अण्ड् सण्डे. सो नेम्स् आफ् द डेस्. एवं कालः टैम् एतदपि सप्तमी विभक्त्यां भवति. सो ऐ गेस् यु आल् नो हौ टु एक्स्प्रेस् टैम्. सो द hours are expressed as vadanam, ekavadanam, dvivadanam, etc. So ekavadane, dvivadane, ityadi. Saha kasmin samaye kim karoti iti vaktavyam. Sharma mahodaya.
Balah panchavadane uttishtati.
Panchavadane pancha panchavadane uttishtati.
Shastavadane gruhakaryam pathati.
Patati, ha. Shadvadane, that is how we normally use it. Shastavadane is also correct, probably. But, yeah. Shadvadane pathati.
Pathati. Ashtavadane tiffin khadati.
Alpaharam khadati, athava bhojanam khadati.
Ratriyam dashavadane nidrati.
Nidrati. Agre.
Namaste.
Sarada.
Balaha sardha ashtavadane shalam gachati.
Sardha ashtavadane. Half hours are indicated by sardha. So sardha ashtavadane shalam gachati.
Balaha sardha dvadashavadane bhojanam karoti.
Sardha dvadashavadane bhojanam karoti.
Balaha sardha trivadane griham agachati.
Sardha trivadane griham agachati.
Balaha sardha saptavadane patam patati.
Saptavadane or shadvadane. Okay, whatever. I have not.
Sardha shadvadane patam patati.
Sardha Shadvadane Patham Patati. Samyak Dhanyavadaha. So, half hours are indicated by Sardha Ardhena Sahitam Sardham. So, half and the previous hour. Okay. Agrimam. Sharada Gopalan. You have to unmute. Namaste.
Padone
sapada
ekavadane sapada ekavadane sapada ekavadane shankarah grihakaryam karoti.
Agataha iti alam karo vakyam vadatu chinta nasti kada agataha iti shankaraha sapada ekavadane. So quarter hour are indicated by sapada. Pada is quarter, so padena saha sapada. Sapada ekavadane shankaraha agataha.
Agataha girija sapada trivadane agata
chaturvadane.
Okay, chaturvadane
sapada chaturvadane. It's 4:15. So sapada chaturvadane agata.
Kinchit netra upa netra upada asti bhagini.
Oh, na na chinta nasti na mama vastutah kinchit confusing asti maya api kinchit laghu kartyam asti. The hand, the our hand should have been smaller.
Gauri. Gauri. Sapada saptavadane agata.
Gauri sapada saptavadane agata.
Pratakale सपाद नववादने गणेशः आगतः.
सपाद नववादने. धन्यवादः. सो सपाद इज द अवर एंड अ क्वार्टर. सो व्हेन इट इज before, that is 45 minutes after an hour, we tell it by padona. Padona, padaha, unaha. So a quarter less than the next hour. So a quarter to 10 or a quarter to 2 and so on. Okay. So it is indicated by padona. Okay. Anybody who has not tried so far in this class wants to try? पद्मनाभन
नमस्ते. माधवः पादोन त्रिवादने गतः.
पादोन त्रिवादने. सो इट इज 2:45. सो क्वार्टर लेस देन 3. पादोन त्रिवादने गतः.
राधा पादोन अष्टवादने गता.
राधा पादोन अष्टवादने गता.
केशवः पादोन षड्वादने गतः.
पादोन षड्वादने. सो 5:45 गतः.
रुक्मिणी पादोन दशवादने गता.
रुक्मिणी पादोन दशवादने गता. धन्यवादाः. एवम् अधिकरणवाचकात् सप्तमी विभक्तिः भवति. सो इट इज द लोकेटिव केस. लोकेशन इन प्लेस एंड इन टाइम विल बोथ गेट सप्तमी विभक्ति. ओके. वी विल स्टॉप हियर. I'm very sorry. I had to go somewhere else earlier, but I didn't want to cancel a class. So I thought we could have at least half an hour of it. We will continue with Saptami Vibhakti in the next class. Ramo Rajamani Sada Vijayate Ramam Rameshaṁ Bhaje Ramena Abhihata Nishachara Chamuhu Ramaya Tasmai Namaha रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरो. धन्यवादः.